तृतीय स्कंद अर्थात 300 अध्याय देह के में आसक्त पुरुषों की अधोगति का वर्णन। कपिल उवाच तस्य तस्य जन अनुनम नायम वेदोरु विक्रमम काल्यमानो अपि बलिनो वायोरिव घनावलिः यमजमर्थमुपादत्त दुखे न सुखे तवे तम तम धुनोति भगवान पुमान शोचति यत्कृते जद ध्रुवस्य देहस्य सानुबन्धस्य दुर्मते ध्रुवाणि मन्यते मोहात् गृह क्षेत्र वसूनि च जन्तुर्वै भवे तस्मिन् यम यम योनि मनोब्रजे तस्यान्तस्यां सुलभते निर्वृतिम् न विरज्यते नरकस्थोऽपि देहं वै न पुमांसि त्यक्तुमिच्छति नरक्याम् निर्वृतौ सत्यां देव माया विमोहितः आत्मजाया सुतागार पशु द्रमण बंधुषु निरूढ़मूल हृदय आत्मानं बहुमन्यते संदह्यमान सर्वांग एषा मुद्वहनाधिना करोत्यविरतं मूढ़ो दुरितानि दुराश्रयः आक्षिप्तात्मेन्द्रिय स्त्रीणाम असतीनाम च मायया रहो रचितया लापय शिशूनाम करभाषिणाम गृहेषु कूटधर्मेषु दुःखतन्त्रेषु तन्त्रतः कुर्वन् दुःख प्रतिकारं सुखवन् मन्यते गृही अर्थैरापादितैर्गुर्भ्यः हिंस एतस्ततश्च तान् पुष्णातिजेषां पोषेण शेष भोग्यात्यध स्वयम् वार्तायां लुप्यमानायां आरब्धायां पुनः लोभाभिभूतो निःसत्त्व परार्थे कुरुते स्पृहां कुटुम्ब भरणा कल्पो मंद भाग्यो वृथोद्यम श्रिया विहीन कृपणो ध्यायन स्वसति मूढ़धि एवं स्वभरणा कल्पम तत्कलत्रादयस्तथा नाद्रियन्ते यथा पूर्वं कीनाशायव गोचरम् तत्राप्यजात निर्वेदो भ्रियमाण स्वयं भृत जरयोपात वैरूप्यो मरणाभिमुखो गृहे आस्तेव मत्योपन्यस्तम गृहपाल इवाहरन आमयाव्यप्दीप्ताग्निरल्पाहारोल्पचेष्टितः वायुनोत्क्रमतोत्तार कपसंरुद्ध नाडिक काशोश्वासकृताया स कंठे घुरघुरायते शयान परिशोचद्भि परिवीतः स्वबन्धुषु वाच्यमानोऽपि नवृते कालपाशवशं गतः एवं कुटुम्ब भरणे व्यापृतात्मा जितेन्द्रियः म्रियते रुदताम श्वानम उरुवेदने अष्टधि यमदूतौ तदा प्राप्तो भीमो सर्वशिक्षणौ सदृष्ट्वा त्रस्त हृदय मूत्रम विमुञ्चति यातना देहाय आवृत पाशर्बद्ध्वा गले बलात् न तो दीर्घ मध्वानम दंडम राजभटा यथा तयोर निर्भिन्न हृदय स्तर्जनैर्जातमे पथु पथि स्वभिर्भक्षमाण आर्तोघम स्वमनुस्मरन् क्षुत्रिड परितर्क दवा नला निलहि संतप्यमानः पथि तप्त बालुके कृष्ण पृष्ठे कशया चताडितः चलत्य शक्तोऽपि निराश्रमोदके तत्र पतत् श्रान्तो मूर्छितः पुनरुत्थितः पथा पापी असा नीतस्तमसा यम साधनम् योजनानां सहस्राणि नौति नौचाधुनां त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनः आदीपनम स्वगात्राणाम वेष्टि त्वल्मुकाद्भिः आत्ममान साधनम क्वापि स्वकृतम परतोऽपि वा जीवतश्चन्त्राभ्युद्धारः स्वगृधर्जम साधने सर्ववृश्चिक द्वंसाद्ये दशद्भिश्चात्मवैशसम् तिन्तनम् चावयवशो गजादिभ्योऽभिदापनम् पातनम् गृश्रृङ्गेऽभ्युरोधनम् चाम्बुगर्तयोऽहम् जास्तामिश्रान्धतामिश्रारौर्वाद्यश्च जातना भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मितः अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते या यातना वै नारक्यस्ता इहापिपलक्षितः एवं कुटुम्बं बिभ्राण उदरं भरये वा विसृज्येहो भयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरं कुशले तर्पाथेय भूतद्रोहेण जद्भृतम् दैवेनासादितं तस्य समलं निरये पुमान् भुङ्क्ते कुटुम्बपोषस्य हृतवित्तैवातुरः केवलेन हि धर्मेण कुटुम्बभरणोत्सुकः याति जीवन्धतामिश्रं शर्मं तमसः पदम् अधस्तान्नरलोकस्य जावतिर्जातनादयः क्रमशः समनुक्रम्य पुनरत्राव्रजेत् शुचिः। इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां तृतीयस्कन्धे कपिलोपाख्याने कर्म विपाको नाम 300 अध्यायः।